ॐ गणेशाय नमः। ॐ वाघर्थाविवसंप्रक्तौ वाघर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ ॐ अस्मद्गुरुभ्यो नमः।
भवतु।
सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। गुरुभ्यो नमः।
धन्यवादः भगिनी, उत्तमम्। नमस्कारः सुधा भगिनी, नमस्कारः, स्वागतम्। अस्तु,
नमस्कारः भगिनी।
नमस्कारः
सर्वेभ्यः।
अस्तु, सो वयम् अद्य किं कुर्मः, अभ्यासपुस्तके वयं पुटसङ्ख्या तु 25 तु अभवत्, वयं कृतवन्तः। तस्मिन् कोऽपि प्रश्नः अस्ति वा तत्र
भगिनि?
हा,
पञ्चविंशतिः इति पुटसङ्ख्या बुधवासरे अस्ति न?
हा हा, अस्ति अस्ति, किन्तु कोऽपि प्रश्नः अस्ति चेत् अभ्यासतु अद्य एव कुर्मः, अन्यथा एकम् अन्य अभ्यासः अपि तत्र अत्र अस्ति, अहं तदेव पृच्छामि। यदि कोऽपि प्रश्नः अस्ति तदनन्तरं तदेव वयं कुर्मः, अन्यथा एकं लिङ्क् अहं प्रेषयामि चाट् मध्ये, पुनः उद्घाटयतु सर्वे कृपया। चाट् मध्ये तत्र अस्ति, कृपया उद्घाटयन्तु। हा अस्तु, अनुक्रमणिका तु वयं किं कुर्मः, शिष्टाचारः तु पठामः, मिलनम् अपि पठामः, तदनन्तरं मिलनं पूर्णतया न कृतवन्तः इति अस्ति वा? भवान् भवती कुत्र गच्छति? हा हा हा, अस्तु अस्तु। हा, अद्य किम् इच्छति, का इच्छति पठितुम् इच्छति? हा, शिवरूपा भगिनी आरम्भं करोतु भगिनी, भवान् भवती कुत्र गच्छति इति।
आं भगिनि, भवान् भवान् भवती कुत्र गच्छति, भवती वा इति पश्यामः।
भवान् भवती कुत्र गच्छति, अर्थ उत्तरं वदतु भगिनि किमपि। भवान् कुत्र गच्छति,
भवान् देवालयं गच्छति.
भवान् कुत्र गच्छति अर्थ उत्तरं किम्?
भवान् कुत्र गच्छति
कथं भगिनि? भवान् इत्युक्ते किम्?
भवान् इति प्रथमविभक्ति एकवचनम् अस्ति भगिनि.
अपि प्रातिपदिकं किम्?
तकारान्त भवत् शब्दः भगिनि.
भवत् भवत् इत्युक्ते किम्?
भव आप्
आप् यदि प्रश्न अस्ति आप् कुत्र गच्छति उत्तरं किं भगिनि? अहम् एव न?
आं भगिनि.
भवान् तु न?
अहं देवालयं गच्छति गच्छामि.
उत्तमम् उत्तमम्. अहं देवालयं गच्छामि. अपि च यदि गच्छामि भूतकालार्थक अस्ति चेत् कथं वदामः?
अहं देवालयं
गतवान्. त्वान्त प्रत्यय आयाति. त्वान्त न तवतु तवतु प्रत्यय ककार तवतु तवतु इति एकं प्रत्ययस्य नाम एव. इत्युक्ते किं? किमपि धातुतः आयाति, धातु अन्ते आयाति, भूतकालार्थक सूचयति. गतवान् इत्युक्ते किं? गतवान् इत्युक्ते पुंलिङ्गम् अस्ति चेत् यदि कर्तृपदम् इत्युक्ते कर्ता पुंलिङ्ग् अस्ति चेत् अपि च एकवचनम् अस्ति चेत् गतवान्. स्त्रीलिङ्ग् अस्ति चेत् भगिनि?
गतवती.
गतवती दीर्घ ई.
गतवती
दीर्घ ई. गतवती अहं देवालयं गतवती. उत्तमम् उत्तमम्. अग्रिमं करोतु.
भवती वा इति पश्यामः.
इत्युक्ते किं?
भवती वा इति पश्यामः. सो हियर् दे हेव् गिवन् लेट् अस् सी इफ् इट् केन् बि डन्.
किन्तु तदर्थ कथम् आयाति भवती वा इति पश्यामः?
पश्यामः
कीदृश कीदृशरूपं?
पश्यामः पश्यति न पश्यामः मेने देख् रही हूं ये हो सकता है क्या ऐसा.
इत्युक्ते उत्तमं. किन्तु पश्यामः
पश्यामि पश्यामि पश्यावः पश्यामः.
इत्युक्ते उत्तमपुरुष
बहुवचन
बहुवचनं पश्यामः. किन्तु अत्र वाक्ये एकं विशेषपदम् अस्ति. तत् किम्? इति किं सूचयति? का सूचयति? कः सूचयति
इति?
तत्र
हो सकता है क्या?
न इति इत्युक्ते किं? कोऽपि जानाति वा इति? कदा वयम् इति पदस्य उपयोगं कृतवन्तः?
इति मत्लब् ये भगिनि
इति इत्युक्ते इति भगवद्गीता तत्सत् इति.
So I am not getting the word bhagini properly.
Iti means like this.
एकम् उदाहरणं वदामि. मम नाम रामः इति रामः वदति. इत्युक्ते किं? मम एषा नाम सीता इति रामः वदति. इत्युक्ते किम्?
मेरा नाम राम है, ऐसा ऐसा राम ने बताया है.
इति इत्युक्ते एग्जैक्टली दिस.
दिस ओके.
एग्जैक्टली दिस. इति तः इतिहास. इतिहास इत्युक्ते किम्?
इतिहास मीन्स् हिस्टरी भगिनि.
हिस्ट्री इत्युक्ते किम्?
चरित्र हमारा पुरातन.
तत्तु सत्यं, किन्तु इतिहास इत्युक्ते किम्? यत् 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 लङ् लकार, भू का लङ् लकार, यत् अभवत्, यत् अभवत् तदेव इतिहास. यत् अभवत्, जैसा हुआ वही है इतिहास. जो मैं उसके बारे में सोचती हूँ वो इतिहास नहीं है. अद्य अद्य विद्यालय अध्यापकाः किं वदन्ति? हिस्ट्री इत्युक्ते किमपि ऑथर किमपि विषये लिखितवन्तः तत्तु हिस्ट्री अभवत्, किन्तु तत्तु सत्यं नास्ति. इण्टर्प्रिटेशन् नाट् अलौड्, रिव्यूस् नाट् अलौड्, देट् इस् नाट् हिस्ट्री. एक्साक्ट्लि जो हुआ बस्, नो मोर्. एण्ड् हू देर् फोर् हू हेज़् द राइट् टु राइट् अ हिस्ट्री इन् संस्कृत, इन् द संस्कृत, इन् द अण्डर्स्टाण्डिङ्ग् आफ़् संस्कृत. ओन्ली वेन् यू हेव् सीन् इट् इन् युर् ओन् प्रेसेन्स् केन् यू राइट् इट्. That is why only Valmiki is the only true writer of Ramayana. That is why Tulsidas never claims it is itihas. Have you noticed that? Tulsidas never claims his Ramayana is itihas. For him, his Ramayana is poetry. Because he wasn't there when Rama was there. Of course, he became Rama. He was so in love with Rama that he became Rama. That is a different story. He experienced Rama in a different way. But Rama's itihas, only Valmiki has that authority. No other person who has written the Ramayana has that authority. Because nobody else was physically there. So iti is actually a very, very powerful word meaning exactly this. That's what it means. Iti. And therefore, it has the value of quotes. You know, quotation, what is inside quotation marks, one is not supposed to be able to change in English. You know that, no?
Yes, Pagin.
In quotation marks, you have to, like in scientific writing, you know, when we are in graduate school in scientific writing, the way to deal with quotes is very, very strict. But history books do not demand quotes. So the entire meaning of history has changed, which is why we are so messed up. If, you know, my daughter also says sometimes, she says, Mom, if only people were taught exactly what happened in this country, Ichuktekim, America, then people would be different. They would see what actually happened. But we hide everything. So nobody knows the reality of the brutality of the history of this land. So nobody thinks that there is anything to fix. So itihas is very, very powerful. Atra kim? Bhavati va iti pashyamaha. Ityukte kim? Bhavati va ityukte kim, bhagine?
Bhavati va ho sakta hai kya?
Bhavati ityukte kim?
Bhavati, it can be, bhagini, like... To be done, bhagini?
Bhavati ityukte hua, ho raha hai.
Ho raha.
Ho raha hai. Ho na, ho raha hai. Lat lakar rupam, lat rupam bhavati. Asti ityukte hai. Bhavati ityukte ho raha hai. Ityukte kim? Jalam... चायं भवति. किञ्चित् परिवर्तने परिवर्तनं कृत्वा जलं चायं भवति. पानी की चाय बनती है.
पानी चाय बन गया ऐसा.
उत्तमं. तदेव होना, किसी का कुछ होना. किसी का कुछ होना भवति. भवति वा हुआ वा हो रहा है क्या. दिस काइंड ऑफ क्वेश्चन. वा भवति वा इति पश्यामः. दिस हम लोग, ये हम लोग देखते हैं. तो बेसिकली भवति वा मीन्स हो रहा है कि नहीं हो रहा है, संभव है कि नहीं है, रियलिटी है कि नहीं है. भवति वा इति पश्यामः. उत्तमम्. अग्रिमम्.
आम भगिनी. ज्ञातं वा. सो डू यू अंडरस्टैंड लाइक दैट.
ज्ञातम् इत्युक्ते कीदृशपदम् अत्र.
जानामि जानाति.
धातु किम्.
ज्ञा धातु भगिनि.
ज्ञा धातु. ज्ञा धातु कस्य गणस्य आयाति.
किञ्चित् किञ्चित् अहं
गणसङ्ख्या किं नाम किम्.
ऐ विल् जस्ट् चेक् भगिनि.
एकवारं पश्यतु.
ज्ञा रैट् भगिनि.
कीदृशधातु. नवमगण. नवमगण इत्युक्ते किं. सुधा भगिनी वदतु. नवमगण किं नाम किं.
नवमगण इति क्र्यादिगणः.
क्र्यादिगण. क्र्यादिगण. उत्तमं. ज्ञा धातु कीदृशधातु भगिनी वदतु एकवारं. शिवरूपा भगिनी अर्थः कः. अन्य कोऽपि वदतु.
सम्यक् न शृणोति.
न शृणोति वा मम
ध्वनि.
अस्तु अस्तु. अन्य कोऽपि वदतु. ज्ञा धातुतः कीदृशधातु वदतु.
ज्ञा धातु इति नवम धातु अस्ति.
नवमगणस्य
धातु अस्ति.
गणतः अपि
गणात् धातु अस्ति इति अर्थः अवबोधने. टु नो टु अण्डर्स्टाण्ड्.
अवबोधने. अवबोधने इति पदस्य विभक्तिरूपं किम्.
सप्तमी विभक्ति.
सप्तमी एव. किमर्थं सप्तमी
इति. इट् इस् अन् एक्स्पीरियन्स् टु रियलैज् आर् टु नो आर् टु अण्डर्स्टाण्ड्.
अन्यथा किमपि महत्त्वं नास्ति.
क्षम्यतां भगिनि. अहं डिस्कनेक्ट्
कृत्वा पुनः आयातु.
आं भगिनि. एकवारं पुनः किं वदामि वा.
न डिस्कनेक्ट् कृत्वा पुनः
आगच्छति भगिनि. अहम् आगच्छामि. सुधा भगिनी किं वदति. अहम्
अस्तु अस्तु. ज्ञा अवबोधने इति अर्थः अवबोधने. अवबोधने इति पदस्य विभक्तिरूपं किम् इति अहं पृच्छामि.
आं भगिनि. अवबोधने सप्तमी विभक्ति एकवचनं.
एकवचन. उत्तमम् उत्तमम्. अपि च ज्ञा धातु परस्मैपदि वा आत्मनेपदि वा.
ज्ञातो आत्मनेपदि अस्ति भगिनि.
अस्ति वा. दत्तं वा. कुत्र दत्तं?
न अहं न पश्यामि, ऊहां करोमि भगिनि.
कोऽपि अन्य कोऽपि वदतु, न दातु, एकवारं पश्यतु भगिनि अष्टाध्यायी मध्ये.
परस्मैपदं भगिनि.
उत्तमं. परस्मैपदी, परस्मैपदी. अपि च न धातु सकर्मक वा अकर्मक वा?
सकर्मकः शब्दः.
सकर्मक इत्युक्ते किं शैलजा भगिनि? सकर्मक इत्युक्ते किं?
वाक्ये कर्मपदम् अस्ति, अस्ति चेत् क्रियापदं सकर्मक अस्ति.
वाक्ये कर्मपदम् अस्ति तु, अस्ति तु एकं किम् एकम् आप्शन् अस्ति न. सकर्मक इत्युक्ते किं? धातु कर्मपदं स्वीकरोति. आवश्यकं तु न. इत्युक्ते किम्? अहं किं ज्ञानामि इति. अत्र तु एकं पूर्णतया अहम् एक वाक्यं वदामि, अहं ज्ञानामि. किन्तु तत्र तु वाक्ये किमपि कर्मपदं नास्ति. अहं ज्ञानामि किमपि कर्मपदं नास्ति. वाक्यं तु समीचीनम्, कर्मपदं नास्ति चेत् अपि समीचीनं. किन्तु यदि अहं वदामि ओ अहं पुस्तकं पुस्तकस्य एकं प्रथमपाठं ज्ञानामि, तत्तु पाठम् इति एकं कर्मपदमस्ति तत्र. अवगतम्?
आं भगिनि.
सकर्मकः.
सकर्मकः परस्मैपदी.
परस्मैपदी. सर्वाणि रूपाणि एकवारं वदतु, लट् लट् रूपाणि.
भगिनी अहं न आयाति अष्टाध्यायी मध्ये.
ओ अस्ति वा. शैलजा भगिनी वदतु लट् रूपाणि सर्वाणि.
आं भगिनि.
पश्यति वा?
आम् आं भगिनि. लट्लकारः ज्ञाता. हा सोरि भगिनि, वन् मिनिट्. जानाति जानीतः जानन्ति. जानासि जानीतः जानीथ. जानामि जानीवः जानीमः.
जानीमः. जानाति जानीतः किञ्चित् भिन्न अत्र. अहं वाक्यं लघुवाक्यं वदतु जानाति इति योजयामः.
आं भगिनि. रामः जानाति.
रामः जानाति. किं जानाति?
रामः इति शब्दः एकवचनशब्दः अस्ति चेत् जानाति प्रथमपुरुषशब्दः अस्ति.
कर्मपदं
प्रथमपुरुषे एकवचनशब्दः अस्ति.
उत्तमं. कर्मपदं तत्र अस्ति चेत् एकं लघुवाक्यं वदतु, रामः किं जानाति?
रामः
वनं
पाठं
जानाति.
वनं जानाति.
तदनन्तरं जानीतः.
जानीतः रामौ जानीतः. रामौ
जानीतः. उत्तमं.
पाठं जानीतः.
रामौ पाठं जानीतः. जानन्ति
जानन्ति. रामाः पाठं जानन्ति.
रामाः पाठं जानन्ति. अपि च राम लक्ष्मण भरत च
पाठं जानन्ति.
पाठं जानन्ति. उत्तमं. जानासि योजयित्वा एकं लघुवाक्यं रचयतु.
त्वं जानासि. त्वं मध्यमपुरुषे एकवचनशब्दः. जानासि प्रथमपुरुष एकवचनशब्दः अस्ति.
जानासि. जानीतः.
जानीतः इस् युवां जानीतः. युवां जानीतः एण्ड् यूयं जानीत
यूयं जानीत यूयम् इत्युक्ते
यूयम् इस् वि यू आल्
यु आल् बहुवचनं जानामि
जानामि जानामि इस् अहं जानामि
अहम्
इस् उत्तमपुरुष एकवचनशब्दः जानामि प्रथमपुरुष एकवचनशब्दः अस्ति अहं जानामि आवां जानीवः वयं जानीमः
उत्तमम् उत्तमं सुन्दरं भगिनी धन्यवादः अस्तु हा शिवरूपा भगिनी
आं भगिनि
वदतु पुनः अग्रिमं कथम्
आं भगिनि कथम् आसीत्
आसीत् कीदृशपदं तत्र
आसीत् अस्ति अस्ति रैट् भगिनि अस् धातु
अस् धातुतः आयाति अस् धातु कीदृशधातु गणसङ्ख्या किम्
एकनिमिषं पश्यामि भगिनि
हा
अस् धातु अस्तातु आत्मनेपदे अकर्मकः अस्ति भगिनि न भगिनि एकनिमिष अहं आ पश्यामि आं भगिनि अस्तातु भवादिगणः उभयपदे सकर्मकः अस्ति भगिनि
अस्ति वा रूपं वदतु एकं प्रथम
अस्ति असतः असन्ति असति असतः
किन्तु भगिनि भगिनि अस्ति स्तः सन्ति तु वयं जानीमः
अस्ति
स्तः सन्ति तत्र तु भिन्न अस्ति न
आं भगिनि आं
भिन्नधातु भिन्नधातु अन्यधातु अस्ति एकम् अन्यधातु अस्ति अस् अन्य कोऽपि वदतु अस् कुतः आयाति
अस्
भुवि
भुवि अदादि
दीक्षिका भगिनी वदतु गणनाम किं
गणनाम भुवि अदादिः अदादिः गणनाम इत्युक्ते भूमि गणसङ्ख्या एकं द्वे द्वे
उत्तमम् उत्तमम् उत्तमं द्वितीयगणः
द्वितीयगणः
अदादिः उत्तमं परस्मैपदि अकर्मक अकर्मक इत्युक्ते किं भगिनि
कर्मपदं नै लेता भगिनि न स्वीकरोति
दीक्षिका भगिनी सर्वाणि रूपाणि एकवारं वदतु लट् रूपाणि
आं भगिनि अस्तातु लट् लकार अस्ति सः सन्ति अस्ति अस्ति कार्यालयः अस्ति कार्यालयः अस्ति स्तः कार्यालयः कार्यालौ स्तः पुल्लिङ्गं कार्यालय अकारान्त पुल्लिङ्ग हा पश्यति वा हा पश्यति वा कार्यालयः अकारान्त पुल्लिङ्ग हा आम सॉरी सत्य ना हाँ आए बहुत पहले देखा था तो लिखा था मैंने कार्यालय अकारांत पुल्लिंग तो कार्यालय कार्यालय एंड कार्यालाहा कारी द्विवचने कार्यालौ लय लय रामौ तो कार्यालौ
कार्यालयौ भगिनि लयौ
लयौ
हाँ कार्यालयौ लया नो भगिनी प्रातिपदिक मीन्स कार्यालय एंड प्रथम विभक्ति एकवचन मीन्स कार्यालय एंड इट इज द्विवचन मीन्स कार्यालय लाइक रामौ
उत्तम रामौ इत्युक्ते
कार्यालयौ
किं भवति मकार अंत अंतिम किं म अस्ति सो मौ अत्र तु य अस्ति सो यौ
यौ तो कार्यालयौ कार्यालयौ
लिटिल बिट ट्रिकी टू प्रोनाउंस
कार्यालयाः सन्ति अस्सी है तो अस्सी भी है त्वम अस्सी थोड़ा ना होएगा त्वम अस्सी अच्छा त्वम अस्सी तुम हो अच्छा ओके आहा अच्छा त्वम अस्सी त्वम अत्र अस्सी त्वम कुत्र अस्सी ओके त्वम अस्सी हाँ तो युवांस्थः यूयं स्थ अहम् अस्मि आवां स्वः वयं स्मः
धन्यवादः भगिनी उत्तम
धन्यवादः
अस्तु कथम् आसीत् अधुना आसीत्
इस् भूतकाल रैट् भगिनि
भूतकालार्थ लकार किं भगिनि एकवारं पश्यतु लकार किम्
एकनिमिषं
पश्यामि आसीत् लकारस्य नाम किम्
आसीत् लङ् लकार
लङ् लङ् यदि लङ् लकार आयाति आदौ अकार आयाति अ आयाति आदौ आदौ इत्युक्ते किं शुरू मे इन् द बिगिनिङ्ग् आफ् द वर्ड्
दीर्घ
न दीर्घ तु न दीर्घ अत्र अस्ति किमर्थम् अत्र दीर्घ भवति अयोगः असीत् तो आसीत् भवति
आसीत्
किन्तु यदि पठ धातु अस्ति तत्र अपठत्
अपठत्
तु न भवति अपठत् इत्युक्ते किं लङ् लकार भूतकालार्थक अस्ति लङ् लकार इत्युक्ते किं यदि भूतकालार्थक किमपि पदस्य क्रिया अभवत् किमपि क्रिया अभवत् इत्युक्ते किं क्रिया हो चुकी खतम हो गई क्रिया हो गई कोई भी काम हो गया अभवत् तदनन्तरं लङ् लकार आयाति लङ् लकार इत्युक्ते किं भूतकालार्थक लङ् लकार यदि अस्ति प्रथम तु आदौ अकार आयाति अ तदनन्तरं धातु तदनन्तरं लकार निमित्ति अन्ते किमपि रूपं प्रत्यय अस्ति अत्र तु आसीत् अयोगः असीत् आसीत् भवति इत्युक्ते किं रामः आसीत्
आगयः
न न न आसीत् इत्युक्ते किम् न न आसीत् भूतकालार्थक भगिनि
वास् देर्
वास् देर्
वास् देर् हि वास्
देर् वृक्षः आसीत्
वृक्षः
वनः आसीत् किन्तु अधुना वनं नास्ति वनम् आसीत् वनम् अधुना नास्ति
भगिनि लैक् पठति तो अपठति अपठत् अपठत् हो गया जैसा भवति के लिए अभवत् आएगा न भगिनि
अभवत् अभवत् कथम् आयाति प्रथम तु अ आयाति तदनन्तरं भवत् अभवत् अभवत् इत्युक्ते किं हो गया
हो गया है
आसीत् इत्युक्ते था
था पहला था
पहले था कभी था जब भी था पहले था अभी नहीं है पहले था आसीत् किन्तु एकवचनरूपम् आसीत् आसीत् तदनन्तरम् अग्रिमं द्विवचने
द्विवचने अस्ताम्
न अस्तां तु न पुनः पठतु समीकरोतु
आस्ताम्
उत्तमम् आस्तां लघुवाक्यं किम्
आस्तां लघुवाक्यं
रामः च
भगिनि रामौ रैट् द्विवचने
रामः सीता च आस्ताम्
रामः सीता च आस्ताम्
सीता रामश्च आस्ताम्
भगिनि ऐ डिन्ट् गाट् इट् भगिनि
टु पीपल् two things
asked two things for ramah it's two things matlab idar to karyalayau aisa idar bhi ramau aayega na
ramau api samichinam ramau ityukte kim ramau astam ityukte kim do ram the
ha aam bagini
do ram the api samichinam sita ramah रामश्च आस्ताम् इत्युक्ते किं सीता और राम थे
ओके ओके भगिनि
किमपि द्वे वचनद्वे इत्युक्ते किमपि विषयद्वे अपि
एक स्त्रीलिङ्ग एक पुंलिङ्ग होयाभि चलेगा भगिनि लैक्
चलेगा 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 किमपि अत्र तु लिङ्गं न लिङ्गभेदः नास्ति
नास्ति
न नास्ति रामः आसीत् सीता आसीत् वनम् आसीत् पुस्तकम् आसीत् किमपि भेदः नास्ति लिङ्गभेदः तु क्रियापदस्य विषये
नास्ति
यदि लकार अस्ति किमपि लकार अस्ति चेत् लिङ्गभेद न करोति
बहुवचन के लिए मैं एक बोलूंगी भगिनि
वदतु भगिनि
रामः राम राम लक्ष्मण च भरत आसन्
समीकरोतु
आसन्
वाक्यं समीकरोतु भगिनि
रामः लक्ष्मणः च भरतः आसन्
च कुत्र आयाति संस्कृतभाषायां
अन्तिमे आर्
अन्ते 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 कस्य अन्ते
वाक्यानि अन्ते भगिनि
न वाक्यानि अन्ते तु न आयाति
किमपि
रामः भरतः लक्ष्मणः च
किमपि सूची अस्ति किमपि अस्ति आवली अस्ति आवल्याम् अन्ते आयाति आवल्याम् अन्ते आवल्याम् इत्युक्ते किं लिस्ट् के एण्ड् मे
ओके भगिनि
रामः लक्ष्मणः भरतः शत्रुगणश्च इति
आसन्
आसन् इत्युक्ते किं बहुवचनरूपम् आसन् उत्तमं मध्यमपुरुषरूपाणि लघुवाक्यं वदतु
आं भगिनि मध्यमपुरुष त्वम्
त्वं भारते आसीः इत्युक्ते किम् इत्युक्ते किम् हो न लङ् लकार भगिनी लङ् लकार इत्युक्ते किम्
भूतकाल भूतकाल
तुम भारत के थे
मे
थे तुम भारत मे थे
यू वर इन इंडिया
यू वर इन इंडिया त्वं भारते आसीः किञ्चित् भिन्नरूपम् अत्र विशेषरूपम् आसीः
आसीः
किञ्चित् भिन्न विशेषरूपं हा अग्रिमं
युवा भारते आस्ताम् आस्तम्
आस्तम् युवां भारते आस्तम् इत्युक्ते किम्
आप भारत मे आप यू वर इन इंडिया
यू इत्युक्ते किम् अत्र
टु पीपल्
यू टु
वर् इन् इण्डिया
यू टु वर् इन् इण्डिया आस्तं रामः सीताश्च भारते आस्ताम् किन्तु मध्यमपुरुषः अस्ति चेत् युवां भारते आस्तम्
आं भगिनि
अग्रिमं करोतु
यूयं भारते आस्त
किञ्चित् विशेषरूपं तत्र आस्त
आस्त ओके भगिनि ओके
आसीः आस्तम् आस्त
आसीः आस्तम् आस्त
आस्त उत्तमपुरुषरूपाणि लघुवाक्यं वदतु
अहं भारते आसम्
अहं भारते अस्मि
आं भगिनि आसम्
आसम्
आवां भारते आस्व
आस्व द्विवचने अस्ति चेत् उत्तमपुरुष
उत्तमपुरुष वयं भारते आस्म
आस्म आस्म किमर्थं वयम् इति लघु लघु वाक्यं पुनः पुनः वदामहे
अहम् इत्युक्ते मे आवाम् इत्युक्ते धोलो हं दो वयम् इत्युक्ते हं लोग्
हं सब्
भारत मे थे
थे उत्तमं तदेव किञ्चित् किञ्चित् परिचय भवति, पठामश्चेत् किञ्चित् किञ्चित् पदस्य परिचय मनसि आयाति. ओ हा हा आस्त आस्त, अहं किमपि एकवारं पश्यामि. आस्त ओ आस्त, हा आस्त इत्युक्ते लङ्लकार मध्यमपुरुष बहुवचनरूपम् इति मनसि मन्दं मन्दं गति आयाति. उत्तमं, धन्यवादः भगिनी.
धन्यवादः भगिनी.
धन्यवादः भगिनी. अस्तु, अधुना सुधा भगिनी पठतु अग्रिमम्.
आं भगिनि. अङ्गीकृतं किल
इत्युक्ते किम्?
Angikritam kila, it says agreed. Kila, I have understood that, isn't it kind of a thing, isn't it?
Haan, kila it yukte hai na?
Haan.
Hai na? When you say, no, ki in Hindi we'll say, no, hai na?
Haan.
Picture dekhi hai na? Doodh wala aya hai na? We say like this, no?
Haan.
So this hai na is like a kila. Kila? Kila? So angikritam kila? अङ्गीकृतम् इत्युक्ते किम्?
अङ्गीकृतम् इट्स् लैक् अग्रीङ्ग्.
अङ्गी 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 से आया होगा आई थिंक. अग्री एंड अङ्गी आर लाइक सो सिमिलर ना. आई थिंक इट केम फ्रॉम दैट ओनली, है ना पापा जी? अङ्गी अङ्गी करना, सो इंग्लिश अग्रीड, सेम सोर्स. Agreed, angi. Actually, in colloquial language, many languages, they say something like that. Hana? Angi karo. Means you agree, please. Do you accept? Angi. Kannada bhasha ya mati kima pi padam asti bhagini?
Ka vadatru bhagini?
Angi. Angi ekam padam asti.
Angi. Angi kyate short bhagini?
ओ शर्ट्
अङ्गी
अस्तु, किन्तु शर्ट् कन्नडभाषायाम् अस्तु. अङ्गी अङ्गीकृतं कृतम् इत्युक्ते पास्ट् टेन्स्. अङ्गीकृतं तभी वो बोल रहा है, अग्रीड नाट् डू यू अग्री. See the difference? Kritam ho chuka. Ta kta pratyaya, bhinya pratyaya ayati. Ete tu langa lakara rupam na, kintu kta kakara yoga ta. Kta pratyaya yoja yamaschet api bhutakalarthaka bhavati. Kimapi kriyapadam. Kintu प्रत्यय योजयामश्चेत् तु क्रियापदं न निष्पन्नं भवति, तत् पदं तु संज्ञापदमेव. इत्युक्ते किम्? इत्युक्ते कृतवान्, अहं कृतवती, अहं भोजनं कृतवती. अत्र क्रियापदं किम्? कोऽपि वदतु.
कृतवती
न, कोऽपि अहं भोजनं कृतवती अस्ति इति. कृतवती आसीत् इति. कृतवती तु संज्ञापदमस्ति, किन्तु क्रियासूचकपदमस्ति. पदं तु स्वयमेव क्रियापदं नास्ति, किन्तु क्रिया किमपि क्रिया सूचयति तत्र. अहं कृतवती इति वाक्ये किमपि क्रियापदं नास्ति. नास्ति चेत् क्रियापदं किम् अस्ति वा आसीत्, किमपि वा आसि आसीः वा किमपि अस्मि किमपि. अहं कृतवती अस्मि.
भगिनी एकः प्रश्नः, कृतवती इति अन्तिमे तिङ् प्रत्यय आयाति तो कर्मपदं
नास्ति न न न कृतवती तु तव तु प्रत्यय भगिनि क्रु धातुतः तु कृतवती न आयाति उत्तमं हा अग्रिमं पठतु सुधा भगिनी
कति अपेक्षतानि
अपेक्षितानि
अपेक्षितानि हौ मेनी डू यू वाण्ट् कति अपेक्षितानि
कथमिति अर्थः आयाति तत्र अपेक्षितानि कथम् आयाति
अपेक्षा इत्युक्ते मतलब अपन जो उम्मीद करते हैं वो है अपेक्षा
तदेव कति इत्युक्ते संख्या
संख्या
प्रश्नवाचक कति अपेक्षितानि क्या आप कितनी उम्मीद रख रहे हैं हाउ मच डू यू वॉन्ट क्या उम्मीद है आपकी कितने कितने चाहिए आपको समथिंग लाइक दैट अपेक्षितम तो नपुंसकलिंगम पदम अस्ति चेत अपेक्षितानि कति सर्वदा बहुवचन रूपम योजयित्वा एव वयं वाक्यं वदामः अवगतम्
Pagini, apekshita is desire is all, is, I mean apekshita is means desire, isn't it Pagini?
Desirable, that you desire, something you desire. Kati apekshitani, uttamam.
It's not simple desire.
It's not simple desire, it's like expect. More like expect. Kati apekshitani, uttamam. उत्तमम् अग्रिमं पठतु भगिनी
अद्य एव वा अद्य एव वा इस् इट् टुडे अद्य ऐ डिड् नाट् गेट् दिस् भगिनी अद्य एव
अद्य अद्य इत्युक्ते टुडे
टुडे
अद्य अद्य इत्युक्ते टुडे श्वः इत्युक्ते टुमोरो श्वः अद्य इत्युक्ते टुडे अद्य एव वा
आं भगिनि
पठतु अग्रिमं पठतु
इदानीम् एव वा इस् इट् गोन् टु बि नौ इदानीम् इस् नौ
उत्तमम् इदानीम् इत्युक्ते अधुना अधुना इदानीम् इत्युक्ते नौ इदानीम् एव इत्युक्ते किं तत्र अद्य एव इदानीमेव एव इत्युक्ते किम्
only now
kīdrisha padam eva
like that bhagini tadeva
ha jaise bolte aaj hai kya hai
eva hi avyaya padam asti
ha ityukte eva api iva bhinna bhinna padam asti artha tu bhinnam asti एव इत्युक्ते हि वहि ये हि इव अस्ति इव अस्ति चेत् इव इत्युक्ते जैसे सीता इव महिला अस्ति इत्युक्ते किं सीता जैसी महिला अस्ति लेकिन् इव से सीता एव अस्ति मतलब सीता ही है वो और कोई नहीं है सीता ही है वो, अवगतम? एव इत्युक्ते ही, इट्स लाइक एम्फैटिक, ही ओनली दैट, नो नन एल्स, नन अदर, ओनली दैट एव। किन्तु इव भिन्न पदम्, अव्यय पदम् तत्तु, किन्तु भिन्न अर्थ तु भिन्न। इव इत्युक्ते लाइक, जैसे किसी के जैसे, अवगतं वा?
आम भगिनी।
यहाँ इदानीम एव इत्युक्ते किमपि अन्य समये न, इदानीम एव, only now,
तदेव अतेन भगिनी।
हाँ तदेव, तदेव अहम वदामि इत्युक्ते किम्? मैंने वही बोला, ही, नो दैट एम्फैटिक ही इज देयर। इदानीम एव वा? अग्रिमं पठतु भगिनी।
आगन्तव्यं भोः, प्लीज डू कम। आगन्तव्यं
किञ्चित् अन्यरूपम् अस्ति, अग्रिमं वयं जानीमः, अधुना तु पठन्तु एव। आगन्तव्यम्, आगन्तव्यम् इत्युक्ते किम्? अनियर् एकः प्रत्ययः अस्ति, तत् प्रत्ययतः यकार आयाति। करणीयं वा, वक्तव्यं वा, इति तु करणीयमेव, ये तो करना ही है। इति तो वक्तव्यम ना, ऐसे नहीं बोलना। एकम अन्य प्रत्यय अस्ति इत्युक्ते आगन्तव्यम माने करना, आना ही है, आना ही है, यू हैव टू कम, इट्स लाइक यू शुड कम, इट्स लाइक दैट, यू नो देयर इज अ सर्टेन सेंस ऑफ क्या बोलेंगे, force or pressure or something that is saying that's the right thing to do, you must come, like that. It's like you must come.
It's like compulsion, Bhagini?
It sounds like a compulsion, but it's more like a strong request or a strong, like it should be done. It should be done. Nobody can force anything, but if something is desirable, it should be done.
Like a forceful request.
हाँ, रिक्वेस्ट भी हो सकता है, नहीं तो हम बोल सकते हैं ना, भगवत गीता तो पठनीयमेव, यू हैव टू, यू शुड, भगवत गीता तो पढ़ना ही है, इट्स लाइक दैट, यू नो, इट्स नॉट अ फोर्स ना, यू कैन नॉट फोर्स एनीबॉडी टू डू इट, बट इन योर लाइफ, इफ यू हैव टू लिव योर लाइफ, यू हैव टू रीड द भगवत गीता, देयर इज नॉट अ चॉइस। आगंतव्यं भोः, प्लीज यू मस्ट कम, please do come. See how they are in English trying to say, he could have said please come, he could have said come, he could have said do come, but look, please do, it's like lot of energy is being put into that, no? Agantavyam bhoho. Agrimam padatu bhagini.
Tadartam va.
Iti padasya vishaya vadatu tadartam.
Tadartam. That, kimartam is for what reason, tadartam is that reason. Tadartam va, is it that reason? Is it for that?
Artha ityukte kim?
Artha ityukte purpose. Reason.
Goal, purpose, reason. Like what is the motivation, or what is the final goal, what is the reason that is causing this to happen or this to be done, like that. Uttamam, agrimam padatu.
Tat kimapi mastu, don't want that. Tat kimapi mastu. अग्रिमं पठामि भगिनि.
तत् किमपि मास्तु. कति पदानि सन्ति तत्र वाक्ये?
वाक्ये त्रीणि पदानि सन्ति.
त्रीणि अधुना तु त्रीणि सन्ति, किन्तु यदि वयं वाक्यस्य विग्रह कुर्मः तदनन्तरं अधुना तु सन्धि अभवत्.
चत्वारि
वा? एकवारं पुनः पश्यतु.
पञ्च.
ते के?
तद् किम् अपि मा अस्तु.
उत्तमम्. तत् किम् अपि मा अस्तु. मा इत्युक्ते किम्?
मा इति न शब्द अर्थः आयाति. इट् नेगेट्स् द मीनिङ्ग् आफ् द वर्ब् मा.
नेगेट् तु सत्यं, किन्तु इट् लैक् अ रिक्वेस्ट्. नो, डोण्ट्. निगेट् इट्स् नाट् सेयिङ्ग् मा अलोन्. इफ् इट् सेज् इफ् ऐ से मा देन् इट् मीन्स् ऐ डोण्ट्. मा इट्स् लैक् देट्. मा विद्विषावहै. सहना भवतु हम लोग बोलते हैं ना. मा विद्विषा मतलब डोंट. इट नॉट जस्ट लाइक नॉट. इट नेगेट. उत्तमम्. अग्रिमं पठतु भगिनी.
न दृश्यते. कैन यू सी?
वदतु भगिनी, इत्युक्ते किम्?
न दृश्यते इत्युक्ते केन् यु सी?
सत्यं सत्यं, किन्तु दृश्यते इति पदस्य विषये, परिचयविषये अपि च अन्य किमपि वदतु भगिनी. कुतः आयाति इति पदम्?
इति धातु दृश् धातुतः आयाति. दृश्यते इति दृश् धातुतः पश्यति पश्यते इति आयाति.
पश्यति. पश्य अन्ते मध्ये यकार आयाति. कुतः आयाति यकार? एकं प्रत्यय अस्ति यक् एकं प्रत्यय अस्ति मध्ये. तत्र किमपि प्रक्रियार्थं तत्र यकारमध्ये आयाति. दृश् धातु योगः यकारः योग आत्मनेपदी अन्ते अस्ति चेत् इति कर्मणीरूपम् अस्ति. संस्कृतभाषायां प्रमुखतः द्वे प्रयोगे स्तः. इत्युक्ते किं? कर्तरीप्रयोगे प्रयोग अपि च कर्मणि प्रयोग. कर्मणि इत्युक्ते किं? यदा कर्मण कर्मपदं किं कर्मपदं प्रमुख अस्ति. कर्तरि प्रयोगवाक्ये कर्ता प्रमुख अस्ति. इत्युक्ते किं? कर्तरि वाक्यम् इत्युक्ते अहं गच्छामि इति वाक्ये. हा, एक्टिव् वाय्स्. ऐ गो, मे जाति हूँ, अहं गच्छामि. किन्तु कर्मणि प्रयोगे मया गम्यते, मेरे द्वारा जाना हो रहा है. मेरे द्वारा इत्युक्ते ऐ एम् जस्ट् द वेसल् आफ् देट् एक्शन्. ऐ एम् जस्ट् द वेसल् आफ् देट्. ऐ एम् नाट् द डूवर्. सी, अल्टिमेट्लि भगवान् सेज् हू इस् द डूवर्. यु थिङ्क् यु डू एव्रिथिङ्ग्. Oh, I did this, I mowed the lawn, I fixed the house, I cooked the food. You know, we think we are the doers. I became pregnant, I had a baby, I became mother. How can you alone yourself be all this? If you were born in isolation, completely unrelated to everything else, you think you could have done all this? No. This is the nature of the prakriti. It's the nature of prakriti that pregnancies happen. Is the nature of work, is the nature of food to become cooked that it cooks. Correct? You cannot make it happen. You cannot make your body grow. It's the nature of the body to grow under certain conditions. What you can do is maybe help provide those conditions, but you are not the doer. So karmani prayoga or passive voice is very, very important in Sanskrit. In Karmani Prayoga, always the Karta takes the Tritiya Vibhakti. And the Kriya Padam changes to Atmanepadi Rupam at the end. So that's why the Ti becomes Te. And then Yakara Madhyayati. Ityukte Kim Dhatu, Tadanantaram Ya, Tadanantaram Kimapi Atmanepadi ending. सो अत्र तु गम्यते, दृश्यते इति. सो मया न दृश्यते, मया न दृश्यते. मेरे द्वारा देखना नहीं हो रहा है इति. किसको भी देखो आप, एनीबडी यू सी. अस्तु, उत्तमं, धन्यवाद भगिनी.
धन्यवाद.
हाँ, शैलजा भगिनी पठतु भगिनी अग्रिम.
आम भगिनी. समाप्तं वा? इज इट ओवर?
समाप्तं वा?
समाप्तं, दट्स् नाट् ए संज्ञापदं भगिनि.
संज्ञापदमेव भगिनि.
नपुंसकलिङ्गशब्दः.
समाप्तं. नपुंसकलिङ्गं कीदृशं नपुंसकलिङ्गम्?
एकवचनशब्दः. नपुंसकलिङ्गशब्दः एकवचनशब्दः अस्ति.
प्रथमाविभक्ति
समाप्ते. न भगिनि, समाप्तं.
कुत्र दृश्यति भगिनि?
फलं, फले, फलानि शब्दवत्.
ऐ रिमेम्बर्
समाप्तं. I'm checking bhagini, but ante chihna am asti chet. I'm checking it again to person.
Padasya lingam kim?
Let me check bhagini once again.
Vishesana padam asti tatra.
Bhagini?
Ityukte kim? Sama Vishesana padam. Ityukte trishu lingeshu asti. विशेषण इत्युक्ते विशेषणपदम् इत्युक्ते किम् आङ्ग्लभाषायां वदतु कोऽपि
एड्जेक्टिव्
एड्जेक्टिव् यदि विशेषणपदम् अस्ति चेत् तदनन्तरं पुंलिङ्गं भवितुम् अर्हति स्त्रीलिङ्गं भवितुम् अर्हति अपि च नपुंसकलिङ्गम् अपि भवितुम् अर्हति किमर्थं भवितुम् अर्हति इत्युक्ते
अव्ययपदं त्रीणि
लिङ्गं न न अव्यय तु किमपि परिवर्तनं न न स्वीकरोति एकं रूपमेव अत्र तु पुंलिङ्गम् एकं रूपम् अस्ति इत्युक्ते किं समाप्तः किं समाप्तः
If I'm asking a male person, I have to say like, I have to use some pullinga shabdha samaptam va.
No, no, it depends what you are describing. Na? Adjective means you are describing a noun. The noun you describe has to be pumlingam, then it will become samaptaha, samaptau, samaptaha. Ityukte kim? Kimapi sanya padam vadatu vastu. कार्यालयः अपि च क्रिया अपि च किमपि भोजनं भोजनम् अस्ति चेत् समाप्तं भोजनम् इत्युक्ते जो खाना खतम् हो चुका इट्स् लैक् एन् एड्जेक्टिव् आफ् द फुड् वट् कैण्ड् आफ् फुड् समाप्तं भोजनम् इत्युक्ते किं जो विशेषणविशेष अधुना स्त्रीलिङ्गं रूपम् अस्ति चेत् समाप्ता लता जो लता थी खतम् हो गई वो लता पूरी हो गई वो लता पूरी हो गई समाप्त हो गई
नाम भगिनी
अपि च पुल्लिङ्गम् अस्ति चेत्
पुल्लिङ्गशब्दस्य समाप्त समाप्तः
समाप्तं वनम्
इत्युक्ते किं जो वन
जो वन थे वो समाप्त हो गए खत्म हो गए
समाप्त इज खत्म इज सी खत्म वी आर थिंकिंग डिस्ट्रॉयड बट समाप्त डज नॉट नेसेसरली मीन डिस्ट्रॉयड ना समाप्त मीन जो पूरा हो गया
पाठम समाप्त
माने जो पूरा हो गया इसका मतलब नहीं जो जो डिस्ट्रॉय हो चुका है नॉट नेसेसरी
रामः पाठम समाप्तम
खत्म गया मतलब दैट दैट इज डिस्ट्रॉय जलम जलम समाप्त
भगिनी
दैट इज फॉर नपुंसकलिंग शब्द भगिनी पाठं समाप्तं जलं समाप्तं इस् फोर् नपुंसकलिङ्गं
पाठं समाप्तं मतलब पाठ हो गया जो हुआ पाठ है पाठं समाप्तं पाठं अत्र अस्ति इत्युक्ते किं जो पाठ हो चुका है वो यहाँ है मम पार्श्वे समाप्तं पाठं अस्ति ओ अस्ति वा एकं विशेषणपदम् अस्ति
भगिनी ऐसा बोल सकते हैं क्या प्रातः कालः समाप्तः
समाप्तः प्रातः कालः बहु सुन्दरम् आसीत् एकं वाक्यम्
आं भगिनि
वाक्यं तु समीचीनं
या जो हो गया सुबह वो बहु सुन्दर था ऐसा भगिनी
तदेव तदेव
समाप्तः विद्यालयः
समाप्तः विद्यालयः कथं हो गया विद्यालयः
कण्टिन्यू टु द कालेज्
अच्छा 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 नो नो ही इस् नाट् एण्टरिङ्ग् कालेज् द विद्यालय इट्सेल्फ् हेज् फिनिश्ड् ही हेज् नाट् फिनिश्ड् स्कूल् इन् दिस् केस्
is it not like implied the kartrupadam is something no, not no, no, implied no, no, in this sentence
no because he is not finished na the vidyalaya is not finished and neither is he finished he is he is done studying from the vidyalaya, but the vidyalaya is still there, no?
Ramam vidyalaya samaptah. So I can say like this.
Say again.
Ramah vidyalaya ramam vidyalaya samaptah. Samaptah vidyalaya vice versa.
Ramam ityukte dvitiya vibhakti. Ramko.
Ramko.
Ramko kya?
Samaptah vidyalaya.
Artha kim bhagini? Kimapi artha nasti tatra. Kriyapadam kim?
Kriyapadam is yes. Ramam is dvitiya vibhakti. And karma padam.
Karma padam. Ramko.
So vidyalayam vidyalayah samaptah.
Samaptam patham aham ramam dattavan. Ram ko maine pura pura kiya hua paath diya tha.
Aam bhagini. Understand.
Astu. Agrimam karotu.
Kasmin samaye. At what time?
Kasmin iti padasya vishaye vadatu.
Kasmin plus in?
No. Kasmin ekam padam asti bhagini. Kidrasha padam, katham ayati, rupam kim, vibhakti kim.
Aam bhagini. 1 minute bhagini.
Kopi vadatu, anya kopi vadatu.
Saptami vibhakti.
Kim vadatu bhagini.
Nena bhagini. Go ahead.
Kim pratipadikam saptami vibhakti ekavachana rupam.
Kim pratipadikasya kasmin trini rupani vadatu sudha bhagini. Kasmin
kayoho keshu.
Keshu. Kasmin kayoho keshu. Keshu iti padam yojayama eka padasya yojayama chet eka vakyam rachayatu bhagini. Keshu. Keshu sthaleshu amram vrakshaha santi. Kasmin padasya vakya kimapi anya vakyam vadatu kopi kasmin
bhagini kasmin
samaye utinam Shirupa bhagini vakyam vadatu
bhavati kasmin samaye uttishtati
na kasmin samaye tu atra eva dattam kimapi anya rupam anya artha swikritya ekam rupam vadatu
bhagini.
Shailaja bhagini vadatu.
Kasmin samaye patashala gachati.
Kasmin samaye tadanantaram api samaye eva ayati. Samaye api saptami.
Samaye saptami ekavachanam.
Dve api saptami eva ekavachana rupam. Kasmin samaye. Konse samaye me.
Bhavati kasmin vidyalaye
पठति कस्मिन् विद्यालये पठति कौन से विद्यालय में तदेव
कस्मिन् विषये जानाति
कस्मिन् विषये जानाति उत्तमं कस्मिन् विषये अन्य कोऽपि दीप्तिका भगिनी एकं वाक्यं लघु वाक्यं वदतु
कस्मिन् कार्यालयः कस्मिन् कार्यालयः गच्छति नहीं गलत
न कस्मिन् कार्यालये
कौन हाँ कार्यालये हाँ सॉरी कस्मिन् कार्यालये लये गच्छति कौन से कार्यालय जा रहे हो नहीं
कह कर्तृपदं किं भगिनी
कौन से कस्मिन् कर्तृपदं कस्मिन् कार्यालये कर्तृपदम् इसमें
न पुनः वदतु वाक्यं पुनः वदतु भगिनि
कर्तृपदं तो भवान् होएगा ना
भवान् हो सकता है अपि वाक्यं वदतु भगिनि
कस्मिन् कार्यालये गच्छति
कीदृशपदं प्रथमपुरुष एकवचनरूपम् अस्ति इत्युक्ते कर्तृपदं किम् अहं तु न अपि त्वं न अन्य कोऽपि सर्वे पदानि समीचीनम्
और कोई जा रहा है ना हम थोड़ा ना जा रहे हैं हाँ प्रथम पुरुष क्रियापद है ना रामः कस्मिन् कार्यालये गच्छति कार्यालये गच्छति हाँ कार्यालये गच्छति हाँ भवान् कस्मिन् कार्यालये गच्छति
उत्तम तदेव सुन्दरं धन्यवादः अस्तु अग्रिमं पठतु किं शैलेजा भगिनी वा Who was reading? I forgot.
आं भगिनि
पठतु भगिनि
तथापि even then
तथा अपि इति तथा योगः अपि
योगः
तथापि तथा इत्युक्ते
लैक् दिस् तथा यथा तथा
यथा तथा यथा इत्युक्ते किम्
यथा तथा इस् दिस् इस् लैक् दट्
यथा तथा इत्युक्ते किम् अन्य कोऽपि वदतु
हवेवर् इट् इस् टु बि लैक् दट् इट् इस् लैक् दट् इस् इट् लैक् दट्
यथा तथा मतलब बोलते ना ऐसा वैसा
ऐसा हो तो वैसा हो
हाँ ऐसा वैसा
हाँ ऐसा
हो तो वैसा हो ऐसा वैसा
हाँ यथा यथा तथा therefore तथा therefore तथा इत्युक्ते therefore तथा अपि मतलब ऐसा हो तब भी ये even then ऐसा हो तब भी तथा अपि
अपि मीन्स् वाट् भगिनि
अपि इस् लैक्
नौ
या फिर आल्सो भी चलता अपि में भी चलता अपि में सी भी कैन हैव मेनी मीनिंग्स इन इन हिंदी आल्सो बट भी इज डिफरेंट फ्रॉम ही He is emphatic, eva. Kintu bhi is more like api. Aisa bhi. Also, in addition to that, this also like that. Bhi matlab ye na. Bhi is not exclusive. Bhi means in addition to something, hai na. Bhi. Matlab, main gai, wo log sab gai the, main bhi gai thi. Means in addition to somebody, I also went. But if I said वो लोग सब गए थे, वो लोग नहीं गए थे, मैं ही गई थी, that means in exclusion of everybody else. He becomes exclusionary. But he is additionally. So api is like that also. Bhi. अग्रिमं पठतु.
आवश्यकं न आसीत्. It was not necessary.
धातु किम्
लङ् लकार
धातु
आसीत् लङ् लकार धातु धातु
किमपि विकरणप्रत्यय नास्ति तत्र. अस्तु उत्तमम्. अग्रिमं पठतु भगिनि.
आं भगिनि. तिष्ठतु भोः. Be here for some time.
Tishthatu lakarakim. Tishthatu.
Tishthatu is sit, Bhagini. Something like that. Sit for some time or stay for some time.
Satyam, satyam.
Tishthatu.
Kartana agrahani.
Tishthatu.
Lot lakar.
Lot lakar. Lot lakar.
Uttamam. Tadeva lot asti. Lot ityuktekim prarthana api. आज्ञा. तिष्ठतु भोः. तिष्ठतु. हा तिष्ठतु कुतः आयाति धातु किम्?
सोरि भगिनि.
कुतः तिष्ठतु कुतः आयाति
धातु? कुतः आयाति? सो वेयर डिड यू कम फ्रॉम?
कहाँ से आता है? तिष्ठतु ये पदम कहाँ से आता है? धातु किम्?
तिष्ठतु तिष्ठतु इज सिट.
अन्य कोऽपि वदतु. स्था. धातु किम्? स्था. स्था धातुतः तिष्ठतु आयाति. यथा दृश् धातुतः पश्यति आयाति. दृश् धातुतः पश्यति आयाति. किञ्चित् भिन्नरूपम् अस्ति. अत्रापि तदेव भवति. भिन्नरूप आयाति. स्था तिष्ठ भवति. बहु किमपि प्रक्रिया तत्र भवति. व्याकरणे बहु किमपि प्रक्रिया भवति. बहु किमपि सोपानानि कृत्वा भूत्वा तिष्ठतु तिष्ठति इति आयाति. तिष्ठति इत्युक्ते रहिये. रहना टु बी. प्लीज स्टे. तिष्ठतु भोः. भोः इत्युक्ते मीन्स् बी स्टेडि. न स्था धातु इत्युक्ते किम्?
स्था धातु मीन्स् इस् टु स्टे और् टु स्टाण्ड्. सो तिष्ठतु इस् स्था धातु. प्रातिपदिकम् इस् स्था.
प्रातिपदिकं स्था न भगिनि. प्रातिपदिकं तु संज्ञापदस्य विषये एव आयाति. अत्र तु धातु आयाति. क्रियापदम् अस्ति तिष्ठतु. प्रातिपदिकं तु विषये एव अत्र तु संज्ञापदं नास्ति. भोः. भोः भोः पदस्य विषये वदतु.
भोः इस् लैक् सम्बोधना. हे राम और हे
किन्तु उत्तमम् उत्तमं सत्यं. किन्तु भोः बहु इन्फार्मल् अस्ति. इत्युक्ते क्या बोलेंगे अच्छे दोस्तों को घनिष्ठ दोस्तों के बीच में भो हो. Only use it with very, very
informal. So addressing for addressing the person in an informal way, Bhagini?
Informal, very, like, very informal. Like very close buddies, close friends.
Hey friend, like we say very, like that. So.
Very close friends. Bhoho, informal. Bhoho. Bhoho api avyaya padam asti. Bhoho. Uttamam, dhanyavada Bhagini. धन्यवादः दीक्षिका भगिनी वदतु
आं भगिनि स्मृति किल
पुनः समीकरोतु भगिनि
स्मरति
किल इत्युक्ते किं
स्मृति मतलब स्मृति मतलब स्मरण आपको याद है क्या स्मृति किल स्मृति
किल किल कीदृशपदम्
किल इज किल
अव्ययपदम्
अस्ति अव्ययपदम्
इत्युक्ते किम्
हेना
हेना याद है ना आपको याद See, है
when you are expecting a yes from somebody then you use kila not when you are when you don't know completely you don't know if the answer could be yes or no from somebody then you cannot use kila
it means like this Bhagini you are very confident about anything then you can like you will be
you are looking for agreement although you know that they agree but you are just looking for it also you know it's the only way but you are looking for some agreement verbal khana
okay to kila smriti kila हा स्मरति स्मरति किल स्मरति कर्तृपदं बालकः स्मरति बालकः स्मरति किल
अधुना शृणोतु रामः सीतां स्मरति किल ऐ मीन् वी नो ही रिमेम्बर् सीता आल्वेज् सीता लिव्स् इन् हिस् हार्ट् नो
अच्छा तो रामः
सीता को स्मरति किल
अच्छा सीता को सीताम अच्छा रामः सीताम
रामः सीताम स्मरति किल
स्मरति किल अच्छा ओके राम
भवती गृहपाठ रूपं न कृतवती किल
आम आ आ आम आम भगिनी
see I know you haven't done so kila uttamam agrimam patatu
tatha kimapi nasti tatha kimapi nasti nasti matlab nahi tatha kimapi nasti नास्ति मतलब नहीं है अस्ति है नास्ति मतलब नहीं है है ना तथा अपन जो बोलते हैं ना तथा किमपि नहीं है तथा किमपि मतलब वैसा नहीं है वैसा कैसा भी नहीं है, वैसा कैसा भी नहीं है, ऐसा थोड़ा ना बोलते हैं हम। हाँ ऐसा वैसा नहीं है, हाँ तथा अच्छा तथा अच्छा तथा किमपि नास्ति वैसा अच्छा हाँ हाँ वैसा बिल्कुल नहीं है किमपि नास्ति ओके कथम अस्ति भवान अच्छा हाँ कथम अस्ति भवान आप कथम आप कैसे हैं भवान से पूछ भवान आप कैसे हैं कथम अस्ति भवान भवान कथम अस्ति है ना इसने ऐसा लिख दिया कथम अस्ति भवान आप कैसे हैं भवान हम लोग बोलते हैं आप कैसे भवान आप कैसे हैं कैसे हैं आप हाँ न विस्मरतु अच्छा विस्मरतु ओके विस्मरतु स्मृति से स्मृति विस्मरतु न विस्मरतु विस्मरतु विस्मर हाँ विस्मरतु अच्छा विस्मरतु मतलब उसके लिए है भूल नहीं भूलना विस्मरतु हाँ विस्मरतु हाँ हिंदी में भी है ना ऐसा कोई शब्द विस्मरतु मतलब याद करिए ऐसा कुछ होता है ना अपन बोलते हैं ना विस्मरतु विस्मरतु मतलब भूलिए
भूलना
ना मतलब ना भूलिए विस्मरतु अच्छा स्मरतु मतलब याद करना और उसमें वी लगा दिया तो भूलना न विस्मरतु अन्यच्च अन्यच्च डबल च अन्यच्च डबल अन्यच्च
गीता भगिनी योर वॉइस इज सो लो वी कुडंट हियर यू
ओ अस्तु अस्तु अन्य अन्यत् च पापाजी वदति अन्यत् तकार दीपिका वदति म्यूट करोतु कृपया
हाँ आम भगिनी
हाँ अन्य अन्यत् योगः च तकार अन्ते आयाति अन्यत् योगः च अधुना किमपि संधि भूत्वा तकार चकार भवति अन्यत् च इति भवति अन्यच्च सोः शुनाश्चुः इति एकं सूत्रमस्ति इति सूत्रेण तत्तकार चकार भवति सोः शुनाश्चुः इति एकं सूत्रमस्ति पाणिनिसूत्रम् अन्यच्च अन्यत् इत्युक्ते किम्
अन्य मतलब दूसरा अन्य अन्य और अच्छा रिमेनिंग अन्य
अदर देन दिस यहाँ ये नहीं पर इससे कुछ अलग अन्य अन्यत्र अत्र तो ना अन्यत्र यहाँ नहीं कहीं और अन्य उत्तमम अग्रिम पठतु भगिनी
तदंत तदनन्तरं तदनन्तरम् अच्छा तदनन्त अरम्
तद् प्लस् अनन्तरं भगिनी युर् वाय्स् इस् गोयिङ्ग् लोवर् अण्ड् लोवर् गीता भगिनी
दीप्षिका भगिनी म्यूट् करोतु तत् प्लस् अनन्तरम् उत्तमं भगिनी अनन्तरम् इत्युक्ते किम् अन्तर इत्युक्ते किम् अन् अन्तर
आफ्टर् वर्ड्स्
न अन्तर इत्युक्ते किं ब्रेक् इण्टर्वेल् अन्नन्तर नान् ब्रेक् अन् इत्युक्ते लगातार् नान् ब्रेकिङ्ग् विदौट् अ ब्रेक् इत्युक्ते अन् अन्तर इत्युक्ते विदौट् अ ब्रेक् अन् अत्र क्या कर्ता है अन् निगेट्स् जैसे इङ्ग्लिश् में कैसे बोलते हैं हम लोग बोलेंगे लाइक अलाइक तो लाइक में अ लगा दो तो इट अपोजिस द वर्ड लाइक बट इफ आई हैड अ वर्ड लाइक हाँ डिसलाइक हो जाता है बट ए एन भी लगता है ना एज एन अपोजिंग प्रीफिक्स अनलाइक अनलाइक अन हियर अन डज द सेम वर्ड मीनिंग एज अ So this an and a is just like Sanskrit, same root. They come from the same root. It opposes that meaning. So antara, anantara, non-breaking, without a break. Tat, that without a break, tadanantaram. Without a break, therefore then happens. Na? Then kab aayega? Then mane what? Without a break, something is going on. No. Continuously, uttamam. रावणः सीताम् अपहरति तदनन्तरं रामः सीताम् अन्वेषणं करोति इमिडियट्लि आफ्टर् दट् राम स्टार्ट्स् टु फैंड् सीता नो उत्तमं विरमाम वा अस्तु किम् अधुना शिवरूप भगिनी अन्तिम शान्तिपाठ वदतु भगिनी
आं भगिनि
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ तत्सत् श्रीगुरुभ्यो नमः हरिः ॐ सर्वं श्रीकृष्णार्पणमस्तु
धन्यवादः भगिनी
धन्यवादः सर्वेभ्य
धन्यवादः
पठन्तु एकवारं सर्वाणि वाक्यानि पुनः पठन्तु कृपया
आं भगिनि
धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः
धन्यवादः भगिनि
You're only one choice.